इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः पुनीत त्रिपाठी। अथ वार्ताः। अष्टादश लोकसभायाः प्रथमं सत्रम् अद्य समारप्स्यते। अस्मिन् सत्रे नवनिर्वाचितानां संसद सदस्यानां शपथ ग्रहणं भविष्यति। भाजपेति दलस्य वरिष्ठः सांसदः भर्तृहरि महताबः, यो नवलोकसभायाः प्रोटम स्पीकर अर्थात् अस्थायी अध्यक्ष रूपेण कार्यं करिष्यति। सः नवनिर्वाचितानां संसद सदस्यानां शपथ ग्रहणं कारयिष्यति। नूतन लोकसभा अध्यक्षस्य निर्वाचनम् अस्य मासस्य षड्विंशति दिनांके भविष्यति। एवं राष्ट्रपति पदासीना द्रौपदी मुर्मुः सप्तविंशति दिनांके संसदि लोकसभायाः राज्यसभायाश्च संयुक्त सत्रं सम्बोधयिष्यति। अस्य मासस्य सप्तविंशति दिनांके राज्यसभायाः सत्रं समारप्स्यते। संसदः सत्रमिदं अग्रिम मासस्य त्रीणि दिनांकं यावत् प्रचलिष्यति। अयं कार्यक्रमः अस्माकं अन्तर्जालपटले newsonair.com अथ अस्माकं यूट्यूब पटलस्य प्रवाहिकायां न्यूज ऑन एआईआर ऑफिशियल इत्यत्र अपि उपलब्धो भविष्यति। गृहमंत्री अमित शाहः निर्दिष्टवान् यत् उत्तम जलौघ प्रबन्धनाय नदीनां जलस्तरस्य पूर्वानुमान प्रणाल्याः उन्नयनाय च प्रयत्नं करणीयम्। नवदिल्ल्यां जलौघ प्रबन्धनस्य सज्जतायाः समीक्षायै उच्चस्तरीयोपवेशनस्य अध्यक्षतां कुर्वन् श्रीशाहः देशे जलाप्लवस्य समाह्वानानि न्यूनीकर्तुं व्यापकं दूरदर्शीं च नीति निर्मातुं दीर्घकालिकोपायानाम् अपि समीक्षा कृतवान्। सः निर्देशं दत्तवान् यत् विद्युद्योतन सम्बद्धानि ऋतुविभागेन प्रसारितानि सञ्चेतनादीनि एसएमएस टीवी एफएम रेडियो इत्यादिभिः माध्यमैः जनसामान्यं प्रति प्रसारितव्यानि। श्रीशाह अवदत् यत् प्रधानमन्त्रिणः नरेन्द्रमोदिनः नेतृत्वे देशस्य आपत्प्रबन्धनं शून्यं हानीति दृष्टिकोणेन अग्रेसरति। गृहमन्त्री भारतस्य ऋतुविभागं केन्द्रीयजलायोगं च पूर्वजलौघ सञ्चेतना प्रसारणे प्रयुक्तानां सर्वेषाम् उपकरणानां पुनः मापनप्रक्रियां पूरयितुम् उक्तवान्। उपवेशने जलशक्तिमन्त्री सीआर पाटिलः, गृहराज्यमन्त्री नित्यानन्दरायः तथा विभिन्न मन्त्रालय विभाग सचिवाः भागं भजितवन्तः। विशिष्ट कार्यदल एसटीएफ इत्यनेन अथ पश्चिम बंगाल आरक्षिदलेन ह्यः सहादत इति नाम्नः आतंकवादी समूहः निगडितः। सहादत इति आतंकवादी समूहः बांग्लादेशे सक्रियः प्रतिबन्धित आतंकवादी समूहः अंसार अल इस्लामस्य आनुषंगिक संघटनम् अस्ति। ध्यातव्यम् अस्ति यत् अंसार अल इस्लामस्य सम्बन्धः कुख्यात अन्तर्राष्ट्रिय आतंकवादी समूह अलकायदा इत्यनेन साकम् अस्ति। सहादत आतंकवादी समूहस्य प्रमुखः मोहम्मद हबीबुल्लाह गतरात्रौ पश्चिम वर्धमान जनपदस्य कांकशा क्षेत्रात् निगडितः। अस्य समूहस्य उग्रवादिनः भारते बांग्लादेशे च विभिन्नेषु उपद्रव गतिविधिषु सक्रियाः भवन्ति। अद्य आईसीसी विंशति प्रतिविंशति विश्व चषक प्रतिस्पर्धायाम् उत्कृष्टाष्ट चक्रे भारत ऑस्ट्रेलिया देशयोः मध्ये प्रतिस्पर्धा सेंट लुइसियायां ग्रॉस आइलेट इत्यत्र डैरेन सेमी अन्तर्राष्ट्रिय क्रिकेट क्रीडांगणे भविष्यति। इति वार्ताः।